एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। अद्य देशस्य पर्वतीय क्षेत्रे होलीको पर्वोत्सव आयोज्यते। पर्वेदम् आबाल वृद्धजना सहर्षम् आयोजयन्ति। यत्र अविरादि चूर्णानां निक्षेप पुरस्सरं विविध रंग मिश्रित जलानि च विकीर्यन्ते। भक्त शिरोमणि प्रह्लादं विष्णुः भक्तिर्विमुखं कारयितुं विविधोपायान् विदधतः। हिरण्यकशिपुः आज्ञया प्रह्लादं भस्मसात् कर्तुं यतमानायाः अग्निसिद्धेः कारणेन दर्पितायाः होलिकायाः न केवलं प्रह्लादस्य दाहकर्म असफलं जातं, प्रत्युत सैव दग्धेति घटनाया स्मृतौ हर्षं प्रकटयितुम् अविरादि रंग मिश्रित जलक्षेपण प्रचलितमिति पौराणिकं वृत्तं वर्तते। इदं पर्व नारीणां सौभाग्य वृद्धये बालानां प्रसन्नतायै लोककल्याणाय रसस्य शमनाय च प्रसिद्धमस्ति। देशस्य तराई क्षेत्रेषु श्व होलिकोत्सव समायोज्यते। अवसरेऽस्मिन् राष्ट्रपति प्रभृतिभि नेतृभि शुभकामना सन्देशः प्रदत्ता वर्तन्ते। राष्ट्रपतिना रामचन्द्र पौडेलेन प्रदत्ते सन्देशे नेपालीनां विशेष पर्वणा फाल्गुन पूर्णिमा महोत्सवेन समाजे पारस्परिकं सद्भावं वर्धयितुम् अतिरिक्त प्रेरणा मिलतु इति कामना विहिता अस्ति। उपराष्ट्रपतिना रामसाहेब प्रसाद यादवेन होलिका पर्वण अवसरे सन्देशे अनेन पर्वणा राष्ट्रिय एकतायाः सामाजिक सद्भावस्य सांस्कृतिक विविधतायाश्च सम्मानं कृत्वा देशं शान्तिं समृद्धिं च प्रति अग्रे वर्धयितुं प्रेरणा प्रदीयते इति विश्वासः व्यक्तोऽस्ति। अद्य पर्वतीय क्षेत्रे अथ च श्व तराई क्षेत्रे च भव्यरूपेण समायोज्यमानं फाल्गुन पूर्णिमा पर्व अर्थात होलिका पर्व मर्यादित रूपेण सुरक्षित रूपेण शान्तिपूर्ण रूपेण च आयोजयितुं तत्र समये सुरक्षा व्यवस्थां सबलां स्थापयितुं च प्रहरिणा अन्तर्गतस्य निकायाः निर्दिष्टाः वर्तन्ते। सर्वकारेण मध्यपूर्व क्षेत्रेषु विकसितायाः पश्चात्तन्याः घटनायाः अनन्तरं तत्र स्थितान् सप्तदश लक्षाधिकान् नेपाल नागरिकान् सम्बद्धानां देशानां सुरक्षा निर्देशनानां पालनां विधाय सुरक्षिततया स्थातुम् अनुरूद्धमस्ति। परराष्ट्र मन्त्रालयस्य माध्यमेन सर्वकारेण तत्र स्थितानां नागरिकाणां सुरक्षा उच्च प्राथमिकतायामस्ति इति ज्ञापयता सुरक्षा सावधानताम् अवलम्बितुम् अनुरूद्धमस्ति। अमेरिकादेशेन इजरायलदेशेन च ईरान देशं प्रति गत शनिवासरात् संयुक्त रूपेण विहितस्य सैन्याक्रमणस्य ईरान देशेन विहितस्य प्रत्याक्रमणस्य च कारणेन मध्यपूर्वस्य स्थितिः चिन्ताग्रस्ता वर्तते। परराष्ट्र मन्त्रालये ह्य आयोजिते पत्रकार सम्मेलने परराष्ट्र मन्त्रालयस्य सहसचिव कृष्ण प्रसाद ढकाल अधुनावधि तस्मिन् क्षेत्रे नेपाली नागरिका सुरक्षिता वर्तन्ते, सर्वकारेण घटनाक्रम समीपतया विलोक्यते चेति अगतत्। पत्रकार सम्मेलने मन्त्रालयस्य प्रवक्ता लोकबहादुर पौडेल क्षेत्री तत्रत्यानां नेपालीनां सुरक्षायाः कृते सर्वकारेण आवश्यकं कार्यं विधीयमानमस्ति इति प्रावोचत्। मध्य ऐशयिक पश्चिम ऐशयिक अफ्रीका महाशाखायाः प्रमुखः रामकाजी श्रेष्ठः नेपाली नागरिकाणां सुरक्षायाः कृते तत्रत्यानां क्षेत्राणाम् अष्टाभ्य दूतावासेभ्य वाणिज्य दूतावासेभ्यश्च सूचनां गृहीत्वा समन्वयो विधीयमानोऽस्ति इति अवदत्। मध्यपूर्वक्षेत्रे जायमानायाः घटनायाः अनन्तरं सम्प्रति पारपत्राणि यात्रा चीटिकानि च नीत्वा गन्तव्यं देशं प्रति जिगमिषुभि यूरोपीय देशान् अमेरिका देशं च प्रति प्रस्थितवद्भि यात्रिभि विमान परिवर्तनस्य क्रमे तत्र विमानस्थलेषु नेपाली नागरिकै कष्टम् अनुभूयमानम् अस्ति इति च ज्ञापितं वर्तते। सर्वकारेण मध्यपूर्वक्षेत्रस्य द्वन्द्वग्रस्तेषु देशेषु कार्यरतानां नागरिकाणां सुरक्षायाः उचितं प्रबन्धनं विधीयमानमस्ति इति ज्ञापितं वर्तते। मध्यपूर्व ऐशयिक द्वन्द्वस्य ईरान देशस्य आक्रमणस्य च कारणेन नागरिकाणां सुरक्षायाः विषये विमृष्टुं ह्य बालुवाटारवर्तिनी प्रधानमन्त्री निवासे उपविष्टेन मन्त्री परिषद उपवेश वैदेशिक वृत्त्युपार्जनाय गतानां नेपाल नागरिकाणां सुरक्षायाः कृते सम्बद्धानां राजदूतावासानां माध्यमेन समन्वयं विधाय सुरक्षिततया स्थातुं व्यवस्था विहिता अस्ति इति परराष्ट्र मन्त्री बालानन्द शर्मा असूचयत्। मन्त्री शर्मा विभिन्नानां देशानां यात्रायां विद्यमानेभ्यः यात्रिभ्यश्च तथैव सुरक्षितरूपेण अवस्थानस्य व्यवस्था विहिता अस्ति इति अगतत्। प्रतिनिधि सभाया निर्वाचनस्य कृते अथ परम त्रीणि दिनानि एव अवशिष्टानि सन्ति। आगामिनि बृहस्पतिवासरे सम्पत्स्यमानस्य प्रतिनिधि सभाया सदस्यानां निर्वाचनस्य कृते निर्वाचन आयोगेन मतदानस्य सम्पूर्ण पूर्वकार्य विहितमस्ति इति ज्ञापितं वर्तते। निर्वाचनस्य कृते भारतदेशस्य चीनदेशस्य च सीमावर्ति जनपदेष् सुरक्षा व्यवस्था सुदृढा विहिता अस्ति। निर्वाचनस्य सुरक्षायै सीमावर्तिष् सीमावर्ति क्षेत्रेष् मतदानस्य द्वासप्ततेः घण्टाकालेभ्य पूर्वतः एव सीमप्रवेशद्वाराणि पिधातुं निर्णीतमस्ति। निर्वाचनविधेरनुसारेण निर्वाचन प्रारम्भदिनस्य द्वासप्ततेः घण्टाकालात् पूर्वं स्थिर समयः भवति इति व्यवस्थाया अनुसारेण अद्य सोमवासरस्य रात्रौ द्वादशवादनात् मौनावधि अर्थात् स्थिरकालः प्रारभमाणो वर्तते। निर्वाचने मतदातारः शान्तेन मनसा शान्तवातावरणे स्वविवेकेन मतदानं कुर्यु इति धिया अस्मिन् अवधौ राजनीतिक दलैः प्रत्याशिभिश्च केनापि माध्यमेन प्रचार प्रसार कर्तुं निषिद्धमस्ति। आगामिनि बृहस्पतिवासरे सम्पत्स्यमानस्य प्रतिनिधि सभा सदस्यानां निर्वाचनस्य कृते संचालितं प्रतिगृहद्वार केन्द्रितं मतदातृ शिक्षाभियानं ह्य सम्पन्नमस्ति।